एषा रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः परिपिधानस्य ईषद न्यूनीकरणेन सहैव आराष्ट्रम् कोरोना संक्रमणस्य संकटः वर्धितो स्थिति निगद्य सर्वकारेण अद्यतः यातायात साधनानां संचालने समविषम संख्या प्रणाली पुनः क्रियान्विता वर्तते। काष्ठमण्डपो उपत्यकायाम् कोविड उनविंशतेः शतद्वयाद् अधिक सक्रिय संक्रान्त जनेषु जनपदेषु च अत्यावश्यक सेवायां संलग्नानि यानानि विहाय सार्वजनिकानि नैजानि च यातायात साधनानि समविषम संख्याया आधारेण संचालनीयानीति गृहमन्त्रालयेन निर्दिष्टम् वर्तते। शतद्वयाद् अधिक सक्रिय संक्रान्त जनयुतेषु जनपदेषु रात्रौ नववादनात् प्रातः पञ्चवादनम् यावत् यानानां संचालनम् निषिद्धमस्तीति गृहमन्त्रालयस्य प्रवक्ता चक्रबहादुर बुढा विज्ञप्तिर्माध्यमेन अज्ञापयत। एवमेव कोविड उनविंशतेः संक्रमणस्य संकटम् विश्लेष्य संकटयुतानि क्षेत्राणि स्थानानि वा जनपद कोविड संकट व्यवस्थापन केन्द्रेण तत्कालम् निर्णीय परिपिधाप्यन्ते, तत्र संक्रमणस्य अतिरिक्त परीक्षणस्य व्यवस्था च विधीयते इति मन्त्रालयेन ज्ञापितमस्ति। स्वास्थ्य जनसंख्या मन्त्री भानुभक्त ढकालः भासते भारते कोरोना विषाणोः संक्रमणस्य अनियन्त्रणं यावत् नेपाले संक्रमण प्रसरणस्य संकटः वर्तते एव। मन्त्रालयेन गतदिने काष्ठमण्डपे संचारकर्मिभिः आयोजिते विमर्शने मन्त्री ढकालः अवदत् भारते संक्रमणस्य अनियन्त्रणं यावत् नेपालेन उच्च सावधानता अवलम्बनीया भवति। सर्वकारेण संक्रान्तानां जनानां संख्यायाः क्रमेण न्यूनीभवनमनु जनजीवनस्य सहजतायै परिपिधानं सरलीकर्तुं निर्णीतं, सदपि सीमावर्तिषु भारतीय नगरेषु संक्रान्तानां जनानां संख्या क्रमेण वर्धिता, तदनु नेपालेऽपि तस्य प्रभावः निपतिता, पश्चात्तन दिनेषु संक्रान्तानां जनानां संख्या च वर्धितेति अतर्कयत। मन्त्री ढकाला संक्रमणस्य नियन्त्रणाय उच्च संकटापन्नेषु स्थानेषु पुनः परिपिधान क्रियान्वयनस्य आवश्यकतायं सत्यमपि पूर्ववत् युगपदेव आराष्ट्रं परिपिधानं न भवतीति समस्पष्टयत। स्वास्थ्य मन्त्री ढकाला यात्रा पर्व धार्मिक कार्यक्रमेषु जनानां सम्मेलनस्य जनस्वास्थ्य सुरक्षायाः मापदण्डानाम् अपरिपालनस्य च प्रवृत्तौ प्रवर्धितायं सत्यं महती दुर्घटना सम्भविष्यति इति विषये सचेष्टा भवितुं सर्वान् अन्वरुणात्। असौ अगतात् कोरोना विषाणोः संक्रमणस्य नियन्त्रणाय संक्रान्तानां जनानाम् उपचाराय च मन्त्रालयेन विहितानां सम्पूर्ण क्रयाणां प्रक्रिया व्यय विवरणानि च पारदर्शिनी सन्ति, आवश्यकतायाः अनुसारेण तानि सार्वजनिकर्तुं च तत्परता वर्तते। कार्यक्रमे स्वास्थ्य जनसंख्या मन्त्रालयस्य सचिवः लक्ष्मण हरियालः विज्ञ परामर्शदाता डाक्टर खेम कार्की च विचारं प्राकटयताम्। गतदिने अतिरिक्तेषु शतत्रय एकाशीत्यां च जनेषु कोरोना संक्रमणं पुष्टीभूतं वर्तते। देशस्य विभिन्नेषु स्थानेषु विद्यमानासु प्रयोगशालासु 60,000 शतत्रयस्य 59 जनानां विहितेन परीक्षणेन शतत्रय एकाशीत्यां च जनेषु कोरोना संक्रमणं पुष्टीभूतम् अस्तीति स्वास्थ्य मन्त्रालयो ज्ञापयति। स्वास्थ्य जनसंख्या मन्त्रालयस्य ह्यस्तने नियमित संचार संक्षेप कार्यक्रमे मन्त्रालयस्य प्रवक्ता प्राध्यापक डाक्टर जागेश्वर गौतमः सम्प्रति आराष्ट्रं सक्रिय संक्रान्तानां जनानां समग्र संख्या 60,174 वर्तते इत्यज्ञापयत्। एवमेव गतदिने 137 जनाः कोरोना संक्रमणात् मुक्ताः सन्तो गृहं प्रत्यावृताः सन्ति। कोरोना संक्रमणस्य कारणेन गतदिने अतिरिक्तस्य जनद्वयस्य मृत्युः पश्चात् संक्रमणस्य पुष्टिमनु नेपाले मृतानां जनानां संख्या 60 प्राप्तास्ति। संक्रमणेन पर्सा जनपदस्य वीरगंज महानगरपालिकायाः पञ्चमवडा क्षेत्रस्य 47 वर्षीयः पुरुषः, पोखरिया नगरपालिकायाः नवमवडा क्षेत्रस्य 18 वर्षीया युवतिश्च अम्रियताम् इति प्रवक्ता डाक्टर गौतमः अज्ञापयत्। सप्तरी जनपदे कोरोना संक्रमण सदृश लक्षणयुतं जनत्रयं मृतमस्ति। कतिचित् मासेभ्य पूर्वं मलेशिया देशात् नेपालं प्रत्यावृत्य गृहे एव उषितः रूपनी ग्रामपालिकायाः पञ्चमवडा क्षेत्रस्य 45 वर्षीयः पुरुषः, राजगढ़ ग्रामपालिकायाः 170 वर्षीयः पुरुषः, डाक्नेश्वरी नगरपालिकायाः 9 क्षेत्रस्य 74 वर्षीयः पुरुषश्च मंगलवासरे मृताः सन्ति। तेषु त्रिषु जनेषु एव ज्वरस्य श्वास प्रश्वासयोश्च समस्या आसीत्। नेपाले प्रसृयमाणायाः कोरोना महामार्याः नियन्त्रणाय देशस्य 14 जनपदानां विभिन्नेषु क्षेत्रेषु निषेधाज्ञा क्रियान्वितास्तीति गृहमन्त्रालयेन ज्ञापितं वर्तते। गृहमन्त्रालयस्य अनुसारेण सप्तरी, धनुषा, नुवाकोट, बाँके, मोरङ, बारा, पर्सा, महोत्तरी, झापा, सुनसरी, बजाङ, दार्चुला, सर्लाई, स्याङ्जा जनपदेषु निषेधाज्ञा क्रियान्वितास्ति। कैलाली जनपदस्य कैलाली ग्राम पालिकायां गत दिवसतः अनिश्चितकालिकं परिपिधानं क्रियान्वितं वर्तते। ग्रामपालिका स्थिते सुरक्षणावासे कार्यरतेषु एकेन स्वास्थ्यकर्मिणा सुरक्षकेण पाचकेन च सहितेषु सप्तसु जनेषु कोरोना संक्रमणस्य पुष्टे पश्चात् गतदिने उपविष्टेन कोविड 19 सम्बद्धाया समितेः उपवेशेन अनिश्चितकालाय परिपिधानं क्रियान्वेतुं निर्णीतमिति ग्रामपालिकायाः प्रवक्ता सप्तमडा क्षेत्रस्य अध्यक्षश्च कमलप्रसाद चौधरी अज्ञापयत्। कोरोना संक्रान्तानां जनानां संख्याया वर्धनमनु नुवाकोट जनपदस्य विदुर नगरपालिकायां गतदिवसता निषेधाज्ञा क्रियान्विता वर्तते। नुवाकोट जनपद प्रशासन कार्यालयस्य आदेशानुसारेण गतसायं षड्वादनत अनिश्चितकालिकी निषेधाज्ञा क्रियान्विता स्थिति नुवाकोट प्रमुख जनपदाधिकारी झंकनाथ ढकालः अज्ञापयत्। इति समाचारः।